एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः भाषते राष्ट्रस्य अर्थतन्त्रस्य सुधाराय नैज क्षेत्रस्य सर्वकारस्य च मध्ये बलवती एकता आवश्यकी वर्तते। नेपालोद्योग वाणिज्य महासंघस्य सप्तपञ्चाशत्तमीम् वार्षिक साधारण सभाम् इह काष्ठमण्डपे सम्बोधयन् प्रधानमन्त्री प्रचण्ड नैज क्षेत्रस्य सबलतया सशक्तिकरणेन च विना राष्ट्रम् समृद्धम् भवितुम् न शक्नोतीति अतर्कयत। नैज क्षेत्रेण सह सहकार्यम् विधातुम् सर्वकारः तत्परोऽस्तीति चर्चयन् प्रधानमन्त्री प्रचण्डः अवदत्। संकटोन्मुखस्य अर्थतन्त्रस्य सहजावस्थायाम् आनयनस्य विषये विमृश्यमानम् वर्तते। प्रधानमन्त्री प्रचण्डः नवीन संविधानस्य निर्माणस्य अनन्तरम् आर्थिक विकासे समृद्धौ च गुणात्मक परिवर्तनम् अपेक्षितम् सदपि राष्ट्रियायाः अन्तर्राष्ट्रियायाश्च परिस्थितेः कारणेन अर्थतन्त्रम् संकटम् प्रतिकुर्वदस्तीति धारणाम् उपस्थापयत्। प्रधानमन्त्री प्रचण्डः प्रावोचत् सर्वकारस्य नीति कार्यक्रमेषु आयव्ययके च उत्पादनस्य निर्माणस्य च क्षेत्रे काश्चित् नवीनाः गुणात्मक प्रकृतेश्च योजनाः अग्रे वर्धा पैष्यन्ते। कार्यक्रमे अर्थमन्त्री डाक्टर प्रकाश शरण महत अगदत् सर्वकारस्य सकलं ध्यानं अर्थतन्त्रं चलनशीलं विधातुं केन्द्रितमस्ति। अर्थमन्त्री डाक्टर महत वैदेशिक मुद्राणां संचितेः क्रमेण वर्धनम् अनुकूलम् अस्तीति चर्चयन् संचित धनपक्षीयं व्ययं वर्धयितुं साधारण व्ययम् आवश्यकतायाः आधारेण विधातुं च बलम् अदात्। उद्योग वाणिज्यापूर्ति मन्त्री रमेश रिजालः न केवलं नेपाले एव अपितु विश्वार्थतन्त्रे च ह्रासावस्थायाः सर्जनात् राष्ट्रस्य आर्थिक स्थितौ सुधारार्थं नैजक्षेत्रेण सर्वकारेण च सहकार्येण अग्रे वर्धितव्यमिति धारणां व्यक्तवान्। कार्यक्रमे नेपाल उद्योग वाणिज्य महासंघस्य अध्यक्ष शेखर गोल्छा अवदत् लोकप्रियतायाः अपेक्षयापि अर्थतन्त्रस्य दीर्घकालिकाम् अल्पकालिकाम् च योजनाम् निर्माय अग्रे वर्धितव्यम्। सर्वकारेण खाद्य पदार्थेषु जीवनाशक विषादेः अवशेषस्य अधिकतम सीमाम् निर्धारयितुम् निर्णीतम् वर्तते। सिंहप्रासादवर्तिनी प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये गतदिने उपविष्टेन मन्त्रिपरिषदः उपवेशेन आयातितेषु उत्पादितेषु च सम्पूर्ण खाद्य पदार्थेषु जीवनाशक विषादेः अवशेषस्य अधिकतम सीमायाः निर्धारणाय मन्त्रिपरिषदः पूर्वाधार समितितः प्राप्तं प्रस्तावं स्वीकर्तुं निर्णीतं वर्तते। मन्त्रिपरिषदः उपवेशेन आयातितेषु उत्पादितेषु च खाद्यपदार्थेषु विषादेः सीमां निर्धारयितुं निर्णीतमिति उपवेशानन्तरं संचार सूचना प्रविधि मन्त्री रेखा शर्मा अज्ञापयत्। सर्वकारस्य प्रवक्ता च संचार मन्त्री शर्मा काष्ठमण्डप महानगरपालिकायाः प्रमुखेण बालेन्द्र साहेन सिंहप्रासाद बालवाटारा शीतल निवास स्थानानाम् अवकरम् नोत्थापयितुं विहिता घोषणा नीतिगत व्यवस्थायाः विपरीतास्तीति हेतोः नीतेः पालनार्थं सर्वकारेण गभीरतापूर्वकं ध्यानाकर्षणं कारयितुं निर्णीतमिति असूचयत्। मन्त्रिपरिषदः उपवेशेन प्रधानमन्त्रिणः संचार परामर्शदातरी गोविन्दाचार्यं नियोक्तुं निर्णीतम् इति च असौ अज्ञापयत्। प्रमुखाणां त्रयाणां दलानां मध्ये संक्रमणकालिक न्याय निरूपण सम्बद्धं विधेयकं सर्वस्वीकार्यं विधातुं सहमतिर्धृता वर्तते। बालवाटारस्थिते सभामुखस्य देवराज घिमिरे विधस्य निवासे ह्य उपविष्टे उपवेशे दलानां मध्ये संक्रमणकालिक न्यायेन सम्बद्धस्य विधेयकस्य विषयं प्रक्रियां च आधृत्य पुनर्विमृष्टुमपि सहमतिर्धृता वर्तते। सभामुखस्य घिमिरे विधस्य संयोजने नेपाली कांग्रेस नेकपा एमा नेकपा माओवादी केन्द्राणां शीर्ष नेतारः संघीय संसदः संयुक्त समितेः अन्यासां समितीनां च नेतृत्वं प्रतिनिधित्वं च सहमत्या निर्णेतुं सहमताः वर्तन्ते। अपरोपवेशः परश्वो वैशाखस्य प्रथमे दिवसे दिवा एकवादने सिंहप्रासादे वस्तेति ज्ञापितं वर्तते। उपवेशे प्रधानमन्त्री नेकपा माओवादी केन्द्रस्य अध्यक्षश्च पुष्पकमल दाहाल प्रचण्डः नेपाली कांग्रेस दलस्य सभापतिः पूर्व प्रधानमन्त्री च शेरबहादुर देउवा नेकपा एमाले दलस्य अध्यक्ष पूर्व प्रधानमन्त्री च केपी शर्मा ओली च सहभागिनः आसन्। नेकपा माओवादी केन्द्रेण संसदीय दलस्य विधानस्य संशोधनाय कार्यदलम संघटितम वर्तते। माओवादी संसदीय दलस्य नेतुः प्रधानमन्त्रिणश्च पुष्पकमल दाहाल प्रचण्डस्य अध्यक्षतायां ह्य सिंहप्रासादे उपविष्टेन संसदीय दलस्य उपवेशेन विधानस्य संशोधनाय दलस्य प्रमुख सचेतक पदीयस्य हितराज पाण्डे विदस्य संयोजकत्वे पञ्चसदस्यीयं कार्यदलं संघटितं वर्तते। कार्यदलस्य सदस्येष् प्रतिनिधिसभातः पूर्ण घरती मगर, विमला सुवेदी च, राष्ट्रिय सभातः जगप्रसाद शर्मा, गंगा बेलवासे च वर्तन्ते। कार्यदलेन विधान संशोधनस्य विषये प्रतिवेदनं प्रस्तुष्यते, तस्यैव आधारेण विधानाय अन्तिम स्वरूपं प्रदास्यते इति च सांसदः राजन दाहालः अज्ञापयत्। उपवेशे प्रधानमन्त्री प्रचण्डः सर्वकारस्य सञ्चालनस्य गतिविधीनाञ्च सम्बन्धे ज्ञापनेन सैव संसदि अनुशिष्टेन मर्यादितेन च प्रस्तुताः भवितुं निरदिशदिति सांसदः राजन दाहालः अज्ञापयत्। नेपाली कांग्रेस दलस्य सभापति शेरबहादुर देउवा निगदति, दलम सुदृढ़ विधातुं शिक्षक संघस्य महत्वपूर्ण भूमिका भवति। नेपाल शिक्षक संघस्य नवमं राष्ट्रिय महाधिवेशनं ह्य काष्ठमण्डपे उद्घाटयन् सभापति देउवा दलम सुदृढ़ कारयितुं शिक्षकाणां महती भूमिका भवतीति प्रत्यपादयत्। सभापति देउवा अभासत कांग्रेस दलेन शिक्षकाय यथा योग्यं सम्मानं दातुं शक्तं नास्ति। सभापति देउवा कांग्रेस दलेन बहुमतस्य आनयनत्वेन सहयोक्तुं सर्वान् अन्वरुणत। संघस्य अध्यक्ष राजेन्द्र राज पौडेल अगदत्, संविधान निर्माणस्य सत्तानां वर्षाणां पश्चादपि संघीय शिक्षाधिनियमस्य अनिर्माणं दुःखस्य विषयो वर्तते। नेकपा एकीकृत समाजवादी दलस्य अध्यक्ष माधव कुमार नेपालः नेपालस्य शिक्षा प्रणाल्यां सुधारस्य आवश्यकतां दर्शयति। प्रगतिशील नेपाल राष्ट्रिय शिक्षक संगठनस्य प्रथमं राष्ट्रिय महाधिवेशनं ह्य काष्ठमण्डपे उद्घाटयन् अध्यक्षो नेपालः शिक्षा प्रणाल्यां सुधाराय प्रधानमन्त्रिणा शिक्षा मन्त्रिणा च स्वयमेव अग्रेसराभ्यां भाव्यमिति बलं प्रादात्। अध्यक्षो नेपालः द्वादशीं कक्षां यावत् निःशुल्कं शिक्षा प्रदातव्येति चर्चयन् शिल्पयुक्ता व्यावहारिकी च शिक्षा प्रदातव्येति न्यश्चिनोत्। शिक्षा मन्त्रालयेन स्वेच्छाचारितया शुल्कं न वर्धयितुं नैज विद्यालयाः निर्दिष्टाः सन्ति। मन्त्रालयस्य सहसचिवेन प्रवक्त्रा च दीपक शर्मणा ह्य विज्ञप्तिं प्रकाश्य आगामी शैक्षिक सत्रस्य कृते विद्यार्थीनां प्रवेशाय पञ्जीकरणे कतिचिद् नैज विद्यालयैः स्वेच्छाचारिरूपेण शुल्कं गृहीतमिति विषये मन्त्रालयस्य गभीरं ध्यानाकर्षणं सम्भूतमस्तीति ज्ञापितं वर्तते। स्थानीय स्तरेण स्वीकृतायाः सीमायाः अभ्यन्तरे स्थित्वा एव शुल्कं ग्रहीतुं शक्यते इति व्यवस्थास्थिति मन्त्रालयेन स्मारितमस्ति। उपप्रधान गृहमन्त्री नारायण काजी श्रेष्ठ कथयति, निष्क्रियं नागरिकता सम्बद्धं विधेयकम् अग्रे वर्धाप्यते। रूपन्देही जनपदीयेन प्रेस सेन्टर संगठनेन पूर्वेद्यु भैरवा स्थाने आयोजिते पत्रकार सम्मेलने मन्त्री श्रेष्ठ नागरिकता सम्बद्धेषु कतिचित् विषयेषु राष्ट्रिय सहमतिः आवश्यकी, सत्यपि सांविधानिक रूपेणैव प्राप्त नागरिकाधिकाराः जनाः नागरिकताविहीनान् विधाय स्थापयितुं न शक्यन्ते इति अतर्कयत्। कोरोना विषाणोः संक्रमणेन ह्य एको जन अम्रियत। स्वास्थ्य जनसंख्या मन्त्रालयेन सार्वजनिक कृतानां तथ्याङ्कानाम् अनुसारेण ह्य सहस्रद्वय षट्त्रिंशदुत्तर चतुःशते च जनेषु विहितेन परीक्षणेन षडुत्तर शते जनेषु संक्रमणं दृष्टं वर्तते। ह्य अष्टचत्वारिंशत् जनाः उपचारानन्तरं गृहं प्रत्यागताः सन्ति। मन्त्रालयोऽसौ इतोऽपि कतिचित् दिनानि यावत् संक्रमणस्य वर्धनं सम्भाव्यते इति ज्ञापयति। सम्प्रति सक्रिय संक्रान्तानां जनानां संख्या एकोनसप्तत्यधिक चतुःशतं प्राप्ता वर्तते। स्वास्थ्य जनसंख्या वैज्ञानिकानां नवमं राष्ट्रिय शिखर सम्मेलनं ह्य काष्ठमण्डपे प्रारब्धमस्ति। नेपाल स्वास्थ्य अनुसन्धान परिषद आयोजिते सम्मेलने पञ्चशतादपि अधिकानां स्वास्थ्य अनुसन्धानकर्तृणां वैज्ञानिकानां अमेरिका स्विट्जरल्याण्ड भारतादि देशानां प्रतिनिधिनां च सहभागिता वर्तते। इति समाचारः।